सर्वेषां नमस्कारः. अस्माकं न्यायवर्गे वयम् अधुना लक्षणग्रन्थे स्मः. लक्षणग्रन्थः इति आरब्धः गतवर्गद्वयात् पूर्वम्, अपि च तत्र लक्षणमित्युक्ते किम् इति ज्ञातवन्तः. पुस्तकात् अपि पठनं जातं, करपत्रमपि पठितवन्तः. तर्हि अव्याप्ति अतिव्याप्ति असम्भवदोषरहितः असाधारणधर्मः लक्षणम् इति ज्ञातम् अस्माभिः. तर्हि अधुना लक्षणग्रन्थे एव पृष्ठसङ्ख्या 37 इति, तत्र सर्वे कृपया गच्छन्तु, पृष्ठसङ्ख्या 37. तत्र केन आगतं नूतनतया? लक्ष्मी भगिनी इति भाति.
लक्ष्मी अस्मि भगिनि.
अस्तु भगिनि,
नमस्कारः.
नमस्कारः, नमस्कारः. अस्तु रघुपतिमहोदय, तत्र पृष्ठसङ्ख्या 37 इति, तत्र लक्षणग्रन्थस्य आरम्भे यदस्ति स्थूलाक्षरैः, कृपया पठति वा?
द्रव्यनिरूपणं तत्र अथवा तत्र, ओके. उद्देशग्रन्थानुसारेण आदौ पृथिवीं निरूपयति, निरूपयति. तत्र गन्धवती पृथिवी, सा द्विविधा नित्या अनित्या च. नित्या परमाणुरूपा, अनित्या कार्यरूपा. पुनः त्रिविधा शरीर इन्द्रिय विषयभेदात्. शरीरम् अस्मदादीनाम्, इन्द्रियं गन्धग्राहकं, घ्राणं नासाग्रवर्ति, विषयः मृत्पाषाणादिः इति.
महोदय, तावत् किञ्चित् तत्र परिशीलनं करोतु.
उद्देशग्रन्थानुसारणम् आदौ पृथ्वीं निरूपयति. पृथ्वीं पृथ्व्याः निरूपणम् अत्र कृतमस्ति. तत्र गन्धवती पृथिवी, पृथ्व्याः लक्षणं गन्ध, पृथ्व्याः लक्षणमस्ति गन्ध. अतः गन्धवती पृथिवी, गन्धवती पृथिवी, तस्याः
गतवर्गे अस्माभिः पठितं खलु, तत्र कः प्रत्ययः अस्ति गन्धवती इत्यस्मिन्?
गन्धवत् प्रातिपदिकं अहं न जानामि.
स्त्रीलिङ्गे मतु प्रत्ययः, गन्धः अस्मिन् अस्ति, अस्याम् अस्ति इति गन्धवती
मतु प्रत्ययः. तस्याः द्विविधा अस्ति, द्वे द्विविधमस्ति, एका नित्या, अपरा अनित्या इति. नित्या परमाणुरूपा, अनित्या कार्यरूपा इत्युक्ते तस्मात् पृथिव्याः किम् अन्यत् पदार्थं निरूप्यते.
महोदय, चिन्तनं समीचीनमस्ति, किन्तु अत्र किञ्चित् वक्तव्यं. नित्या परमाणुरूपा इत्युक्ते किम्?
नित्या परमाणुरूपा इत्युक्ते अन्तिमरूपा अस्ति, तत् विशेष तत्र
परमाणवः इति अस्माभिः दृष्टं खलु. परमाणवः नित्यद्रव्याणि सन्ति वा अथवा अनित्यानि?
नित्यद्रव्याणि, नित्यद्रव्याणि. तेषां भेदः न कर्तुं शक्यते. ऐ मीन् सपरेशन्, फर्दर् सपरेशन् न कर्तुं शक्यते.
अवयवाः न सन्ति परमाणु.
अवयवाः न सन्ति
इति दृष्टम् अस्माभिः. तादृशः पदार्थः परमाणवः नित्याः इति वदामः किल. तर्हि परमाणुषु अपि पार्थिवपरमाणवः जलीयपरमाणवः इत्युक्ते पृथिव्याः परमाणवः येभ्यः परमाणुभ्यः पृथिवीद्रव्यं निर्मीयते तादृशः पार्थिवपरमाणवः जलीयपरमाणवः इति भवन्ति. तर्हि अत्र किम् उक्तम् इति चेत् पृथिवी द्विविधा प्रथमतया अस्तु. परमाणुरूपा नित्या इति उक्तं यतोहि परमाणवः नित्याः इति तावत्तु अवगच्छामः किल. अनित्या कार्यरूपा इति उक्तम्. अत्र कार्यरूपा इति किम् इति चिन्तनीयं. भवान् यद्वदति यस्याः पृथिव्याः अन्यत् किमपि पृथिवीतः अन्यत् किमपि जायते कार्यं तादृशम् इति चिन्तयति खलु. हा तद् एकदृष्ट्या समीचीनमेव. यतोहि घटः पटः अथवा अन्यत् किमपि उत्पीठिका लेखनी इमानि वस्तूनि पार्थिववस्तूनि एव.
मनुष्यः अपि मानवः अपि पार्थिव
अस्माकं
देहः मानवदेहः ओके मानवशरीरम् ओके
इति पार्थिववस्तु एव. तर्हि यद् जायते तद् कार्यम् इति वदामः. जन्यं भवति इति तस्य जन्म भवति. परमाणुस्तरे तथा नास्ति खलु. जन्म अपि नास्ति
अन्त्यमपि नास्ति.
परन्तु कार्यम् इति यद्वदामः तद् जन्यं भवति अपि च अनित्यानि च तादृशवस्तूनि इति. अस्तु तादृशपृथिवी कार्यरूपा अस्ति. अनित्या पृथिवी अपि अस्ति. एका तु नित्या
जन्यरूपा वस्तु
अनित्या सत्यं.
पुनः त्रिविध पुनः त्रिविध शरीर इन्द्रिय विषभेद शरीर पुनः त्रिविध शरीरे इन्द्रिय विषयभेदात् कस्य त्रिविध कार्यरूप प्रतिव्या वा.
समीचीनं महोदय. कार्यरूपायाः पृथिव्याः त्रैविध्यं पुनः
शरीर इन्द्रिय त्रिविध कुत्र अस्ति. शरीर इन्द्रिय एव अस्ति विषयभेदात् विषय एव
शरीर
इन्द्रिय विषय ओके शरीर इन्द्रिय विषय त्रिविध ओके. शरीरम् अस्मदादीनां शरीरं मानवस्य शरीरम् अस्ति. इन्द्रियं प्राणिनामपि सर्वं जडवस्तूनामपि शरीरम् आकार एव शरीरं वा
किं
घटस्य शरीरम् अस्ति वा न
अवश्यमस्ति. क्षम्यतां हा शरीरम् इति घटस्य शरीरम् इति न वदामः. हा घटः इति कार्यरूप अधुनैव वदामि शरीरम् इत्युक्ते किम् इति. परन्तु मनुष्य अपि च पशूनां सस्यानां शरीरम् इति चिन्तयतु. अस्मदादीनाम् इत्यस्मिन्
सर्वे प्राणिनां सर्वे जीववस्तूनां
वस्तूनां शरीरम् इति चिन्तयतु. अस्तु अग्रे.
इन्द्रियं गन्धग्राहकं घ्राणं नासाग्रवति. शरीरे ये अवयवाः सन्ति ते अवयवाः सन्ति श्रुतं गन्धग्राहकं वयं कर्तुं शक्नुमः.
किम् उक्तं भवता. इन्द्रियं भेदः अस्ति. शरीरम् इन्द्रियं विषयः इति. शरीरम् इत्युक्ते किम्. अस्मदादीनां शरीरं पशूनां सस्यानां मनुष्याणाम् इति. इन्द्रियम् इत्युक्ते किं. पार्थिव इन्द्रियं किम्. अग्रे पठतु. गन्धग्राहकं
घ्राणं नासाग्रवर्ति. नासाग्रवर्ति इति नासाग्रे नासाग्रवर्ति इत्युक्ते
वस्तुतः वयं किं वदामः. नासिकया जिघ्रामि अथवा गन्धम् अनुभवामि इति वदामः खलु. ते नैयायिकाः तु इतोपि गभीरतया चिन्तनं कृत्वा नासिकायाः अग्रभागे इन्द्रियं वर्तते. इन्द्रियम् इत्युक्ते अवयवः इति न, शरीरस्य अवयवः न, किन्तु तत् सेन्सरि आर्गन् इति वदामः खलु, तद् विशेषतया तद् घ्राणम् इति तस्य नाम दत्त्वा नासिकायाः अग्रे अस्ति, नासाग्रवर्ति घ्राणम् इति वदन्ति. अपि च घ्राणं कीदृशं पुनः?
गन्धग्राहकं घ्राणं, गन्धग्राहकम् इन्द्रियं घ्राणम् अस्ति.
घ्राणम् अपि च कीदृशम् इन्द्रियम् एतत्?
नासाग्रवर्ति गन्धग्राहकं, नासाग्रवर्ति गन्धग्राहकं.
अपि च पार्थिव इन्द्रियम् इति मनसि भवेत्.
अत्र एक एव इन्द्रिय, पञ्च इन्द्रिया अस्ति न?
हा, पञ्च इन्द्रियाणि सन्ति, किन्तु भिन्नानि इन्द्रियाणि भिन्नेषु लक्षणवाक्येषु आगच्छन्ति, अग्रे गत्वा पश्यामः. अत्र पार्थिव इन्द्रियं घ्राणं किमर्थं? पृथिव्याः विशिष्टगुणः कः?
पृथिव्या, ओके, पृथिव्याः इति विशिष्टगुणः अस्ति गन्धः.
गन्धवती
पृथिवी,
गन्धः, गन्धग्राहकं. ग्राहकम् इत्युक्ते ज्ञानजनकं, ज्ञानजनकम् इति ग्राहकं. गन्धविषयकज्ञानजनकमस्ति पार्थिवम् इन्द्रियं घ्राणम्. इन्द्रियमिति घ्राणं, नासिका न. नासिका इति शरीरस्य अवयवः इति नासिकायाः अग्रभागे यद् अस्ति तद् गन्धग्राहकम् इन्द्रियं घ्राणम् इति उच्यते.
विषयः मृत्पाषाणादि, विषयमृत्पाषाणादि भौतिकरूप घटपट अस्ति या पाषाण इति मृद् मृद् अस्ति ते विषयः इति उच्यते. समीचीनं वा?
हा, समीचीनम् अस्तु. तर्हि कार्यरूपा पृथिवी त्रिविधा इति, शरीरेन्द्रियविषयभेदात् इति उक्तं. शरीरम् अस्मदादीनां, मनुष्य पशु सस्यानाम् इति. तर्हि भवान् उक्तवान्, पृष्टवान् खलु, घटः अपि तस्यापि शरीरम् अस्ति वा इति. तादृशप्रश्नः समीचीनः एव. तर्हि कार्यरूपा इति घटः अपि, तर्हि घटः अपि शरीरं वा इति प्रश्नः आगच्छेदेव. किन्तु शरीरम् इत्यस्य विशिष्टपरिभाषा अस्ति, आत्मनः भोगायतनं शरीरम् इति वदन्ति नैयायिकाः. आत्मनः भोगायतनं शरीरम्, आयतनम् इत्युक्ते आश्रयः.
Okay.
आत्मनः भोगस्य आश्रयः यद् तद् शरीरम्, अथवा okay. चेष्टाश्रयः शरीरम् इति.
चेष्टाश्रयः
चेष्टा इत्युक्ते एकविध
क्रिया.
अपि च सा क्रिया कीदृशी इति चेत् हिताहितप्राप्ति अनुकूला क्रिया. भोगः इत्युक्ते हितं वा अहितं वा इति. तादृशहिताहितप्राप्ति अनुकूला क्रिया शरीरे वर्तते, तदेव शरीरम् इति उच्यते. अस्तु, कोऽपि प्रश्नः वा विद्या भगिनी?
भगिनी, अत्र आयतनः इति पुनः वदतु.
आयतनम् इत्युक्ते आश्रयः भगिनि.
आश्रयः,
आत्मनः भोगायतनं शरीरं. भोगः इत्युक्ते केवलं समीचीनभोगानि इति न, सुखं दुःखं सर्वं भोगः. तादृशस्य आश्रयः अस्ति शरीरम्. अनेन यद् महोदयेन पृष्टं, घटः इति प्रायः न भवितुम् अर्हति, शरीरेण अन्तर्भूतं स्यात्. घटः इति वदतु.
क्षम्यतां भगिनि, वदतु भगिनि.
घटः इति विषये अन्तर्भूतः स्यात् इति, मृत् पाषाणि पाषाणादिः तादृशः इति.
तर्हि अत्र आत्मनः तु सस्येषु अपि आत्मा वर्तते इति वा?
हा, इति सत्यं, जीवितवस्तु खलु इति कृत्वा जीवात्मा इति. भानुचैतन्यमहोदय.
आं महोदय, तत्र नित्या परमाणुरूपा, अनित्या कार्यरूपा इति लिखितम्. इत्युक्ते पृथिवी यदस्ति तत् कारणरूपं कार्यरूपं द्वयोः वर्तते वा? इत्येव
परमाणु इति कार्यरूपा नास्ति, कार्यमिति यथा कारणरूपा, हा कारणरु कारणं तु अस्ति पर इति समीचीनमेव, परमाणु इति कारणं भवति खलु, अवयवः अवयविनः कारणम् इति अस्ति एव, परन्तु तादृशभेदं न कर्तुं शक्नुमः, कारणरूपा कार्यरूपा इति न वक्तुं शक्यते महोदय, केवलं नित्या अनित्या इति स्वीकृत्य नित्या परमाणुरूपा अनित्या कार्यरूपा इति एव वक्तुं शक्यते. अस्तु,
अन्यत् प्रश्नः भगिनी, अत्र सस्येषु आत्मा वर्तते इति कृत्वा तत्र सस्येषु अपि ज्ञानं भवति वा?
आं भगिनि इति
अस्तु,
प्रायः अस्माभिः न ज्ञायते, किन्तु यदि चिन्तयामः चेत् तत्र सुखदुःख भोगादीनाम् अनुभवः तैः अपि अनुभूयते खलु इति कृत्वा तादृशं
इति मन्ये, अहं न जानामि
इति आनुभविकरीत्या
सन्फ्लावर् अस्ति, यदि सूर्य आगच्छति तस्य तस्य दिशि सन्फ्लावर् तस्य दिशि जातः सूर्यस्य, सो तस्य अपि प्राणा अस्ति, किन्तु तस्य इङ्ग्लिश् मध्ये एक्स्प्रेशन् आफ् लैफ् इन् द प्लाण्ट्स् इस् नाट् एस् मच् एस् इन् द animals, and then further from animals to the human beings, the level of the expression differs, and that differs depending upon the mind and the intellect development.
Haamaam iti satyam eva vayam to express kartum iti te prakati kartum shaknumah hitasya va ahitasya anubhavam te api kinchit prakati kurvanti तस्यैव रीत्या, यतोहि यत् सन्फ्लवर् इति भवती उक्तवती सूर्यस्य दिशि गच्छति खलु, तदेव तस्य एक्स्प्रेशन् अथवा प्रकटीकरणम् इति चिन्तयितुं शक्यते. अपि च तादृशमेव हिताहित अनुकूलक्रिया, हिताहितप्राप्ति अनुकूलक्रिया वर्तते सस्येषु अपि अथवा प्राणिषु, या कापि क्रिया भवतु, सूर्यं प्रति गमनम् इति एव क्रिया इति चिन्तयतु, तदपि हिताहितप्राप्ति अनुकूलक्रिया एव खलु, हितप्राप्ति अनुकूलक्रिया. अस्तु अस्तु, तादृशमस्ति शरीरं पार्थिवम्, अपि च किमुक्तं, हा हिताहितप्राप्ति अनुकूलक्रिया इति उक्तम्. अधुना इन्द्रियं विषयः इति वक्तव्यं, पुनः हितस्य अपि च अहितस्य प्राप्तिः केन भवति? केनचित् विषयेण भवति. तर्हि विषयः इत्युक्ते उपभोगसाधनम् इति वदन्ति, पुस्तकं भवतु अथवा भवनं भवतु, येन केनचिदपि सुखं वा दुःखं वा लभ्यते, अथवा घटः अपि भवतु, तेन किमपि भवति खलु अनुभवः कोऽपि भवति, तादृशः अस्ति पार्थिवविषयः. अपि च तद्भिन्नम् अस्ति इन्द्रियं, तद्भिन्नम् इत्युक्ते शरीरभिन्नम्, अपि च किं विषयभिन्नम् अस्ति इन्द्रियम्. इन्द्रियम् इत्यस्य शास्त्रीयरीत्या इतोपि बहु किमपि वदन्ति, तत्र जालपुटे एकम् अस्ति इन्द्रियस्य लक्षणमिति, दलसार्थक्यम् इत्यत्र गत्वा पठितुं शक्नुवन्ति, किन्तु साधारणतया वदामश्चेत् कार्यरूपा पृथिवी त्रिविधा, यद् शरीरमपि नास्ति विषयः अपि नास्ति तत् पार्थिवम् इन्द्रियम् इति जातं. शरीरमिति अपि इति जानीमः, आत्मनः भोगायतनं शरीरं, विषयः उपभोगसाधनं, तद्भिन्नमस्ति इन्द्रियम् इति. इन्द्रियं तु विषयज्ञानजनकं भवति, गन्धस्य ज्ञानजनकम् अत्र इति. अस्तु
महोदय, उपभोगसाधनम् उपभोगसाधनम्.
हा लक्ष्मी भगिनि,
इन्द्रियाणि शरीरे वर्तते तथापि शरीरेण भिन्नं शरीराभिन्नं विषयभिन्नम् इति संज्ञा भवति इन्द्रियस्य.
इन्द्रियस्य आं भगिनि, शरीरे नासाग्रवर्ति यद्यपि अस्ति तथापि इन्द्रियम् इति ग्राहकम् इति चिन्तयतु, विषयज्ञानजनकं तदेव इन्द्रियम्.
अस्तु
अस्तु अस्तु, अधुना किञ्चित् इतोपि चर्चां कुर्मः. अपि च किं लक्ष्मी भगिनि, भवती सप्तवादने गच्छति इति उक्तवती वा? अस्तु
आम् आं भगिनि
अस्तु. अपि च इदानीम् एकत्र जलम् अस्ति इति चिन्तयन्तु, अस्तु, जले गन्धः अस्ति, जले गन्धः अस्ति चेत् तत्र किं चिन्तनं, कोऽपि वदति वा?
जले गन्धः तु पृथ्व्यामेव अस्ति, अतः तत्र जले अस्ति चेत् तत्र पृथ्व्याः कणाः तत्र सन्ति इति अवगन्तुं शक्नुमः.
हा, अवगन्तुं शक्नुमः. रघुपतिमहोदय किम् उक्तवान्?
एतदेव उक्तवान्, पृथिवी पृथिवी अस्ति.
हा, भानुचैतन्यमहोदय अन्यत् किमपि अस्ति वा वक्तुम्? अस्तु, परन्तु गन्धवती पृथ्वी इति उक्तं खलु, वत् इति कस्मिन् अर्थे आगच्छति प्रत्ययः? अस्यास्मिन् वा. अस्तु, अत्र अस्मिन् इति स्वीकुर्मः, पृथिव्यां गन्धः, अस्यां गन्धः इति. तर्हि वत् इति अस्याम् इति सूचयति चेत् किं सूचयति? आश्रयं सूचयति खलु. तर्हि यथा करपत्रे अपि पठितम् आश्रयत्वं लक्षणम् इति पठितं खलु, एवमेव गन्धाश्रयत्वं पृथिव्याः लक्षणम् इति वक्तुं शक्नुमः. गन्धवती पृथिवी अथवा गन्धाश्रयत्ववती पृथिवी इति अपि वक्तुं शक्नुमः. गन्धाश्रयत्वं पृथिव्याः लक्षणम् इति आगच्छति खलु. परन्तु
भगिनि पुनः गन्धाश्रय पुनः वदतु भगिनि, प्रत्यया लक्षणं?
हा, वत् इति
गन्धाश्रय, गन्धाश्रयत्वं,
गन्धाश्रय गन्धाश्रयत्वं पृथिव्याः लक्षणम् अथवा
गन्धाश्रयत्वम्, ओके,
पृथिव्याः लक्षणम् अथवा पुनः वति वत् प्रत्ययं योजयामश्चेत् गन्धाश्रयत्ववति पृथिवी खलु.
गन्धाश्रयत्ववती पृथिवी, ओके,
पृथिवी इत्युक्ते गन्धाश्रयः पृथिवी एव, गन्धाश्रयत्वं पृथिव्याम् अस्ति इति कृत्वा पुनः गन्धाश्रयत्ववती पृथिवी इति वक्तुं शक्यते, यथा गन्धवती पृथिवी. आश्रयः इति अधिकरणं सूचयति, अस्ति अस्ति इति वदामः खलु, भूतले घटः अस्ति इति वदामश्चेत् तत्र आश्रयः भूतलं खलु. पृथिव्यां गन्धः अस्ति इति वदामः, परन्तु जले गन्धः अस्ति इति अपि प्रतीतिः अस्ति खलु. भवद्भिः भवता अपि च विद्याभगिन्या यदुक्तं तत् सत्यमेव, जले पृथिवी अस्ति पृथिव्यां गन्धः अस्ति इति तु सत्यं, परन्तु जले गन्धः अस्ति इति प्रतीतिः तु अस्ति लोके, लोकव्यवहारः अस्ति खलु. तर्हि गन्धाश्रयत्वं जलस्य लक्षणम् इति आगच्छेत् तत्र किं चिन्तनम्? नैयायिकाः तु प्रतीतिव्यवहाराभ्याम् अर्थसिद्धिः इति
भगिनि
इतोपि किञ्चित् वदतु विजि भगिनि, अव्याप्तिः इति किं वक्तुम् इच्छति इति?
गन्धः पृथिव्याम् अस्ति, जले अस्ति, अन्यत्रापि अस्ति, किन्तु गन्धः जलस्य लक्षणं नास्ति. जल पृथिव्यां पृथिव्यालक्षणं गन्धः अस्ति
इति वयं स्वीकृतवन्तः. गन्धाश्रयत्वं गन्धाश्रयत्वम् इत्युक्ते गन्धवत्वं पृथिव्याः लक्षणमिति वयं स्वीकृतवन्तः, परन्तु अहं किं वक्तुम् इच्छामि इति चेत् आश्रयः इति चेत् किम् अस्ति इति सप्तमी प्रयोगं कृत्वा वदामः खलु, भूतले घटः अस्ति अथवा जले मीनः अस्ति, तदेव आश्रयत्वम्. अधुना जले गन्धः अस्ति इति प्रतीतिः भवति एव लोके,
पृथ्वीजलसंयोगेन भवति.
पृथ्वीजलसंयोगेन गन्धः कुत्र अस्ति सरला भगिनी?
गन्ध पृथ्व्याम् आगच्छति परम्परासम्बन्धेन.
न, गन्धः पृथिव्यां केन सम्बन्धेन अस्ति?
गन्धपृथ्व्यां समवायसम्बन्धेन अस्ति. यदि पृथ्वीजलसंयोगः भवति तद् जले गन्धस्य अनुभूतिः आगच्छति परम्परासम्बन्धेन भवति. स्वसमवायिसंयुक्तसम्बन्धः भवति तद्.
इति सर्वं सत्यं, परन्तु अन्ततो गत्वा गन्धाश्रयत्वं जले अस्ति न वा? भवत्या यदुक्तं तत् सत्यं. गन्धः गुणः, पृथिवी इति गुणि, पृथिव्यामेव गन्धः वर्तते समवायेन सम्बन्धेन इति सत्यं. पुनः पृथिवी जलसंयोगः अतः स्वसमवायिसंयुक्तत्वसम्बन्धेन इति सत्यं, सर्वं सत्यमेव. परन्तु अन्ततो गत्वा गन्धाश्रयत्वं जले अपि आगच्छति केनचिदपि सम्बन्धेन, किल? तर्हि परिष्कारः कः कथञ्चित् परिष्करणीयम् अस्माभिः?
यदि जले पृथ्वी नास्ति तत् जल आश्रयं न भवितुं शक्नोति गन्धस्य.
वदतु.
अतः पृथ्वी एव गन्धस्य आश्रयः अस्ति, न तु जलः.
न तु जलम् इति सर्वं सत्यं भगिनि. विद्या भगिनि,
अत्र त्व इति प्रत्ययं योजयामः चेत् तत्र धर्मः एव सूचयति, तर्हि तत्र आधारादेभावः स्पष्टः भवति. तर्हि गन्धः पृथ्व्यामेव अस्ति इति.
हा, इति गन्धाश्रय
गन्धाश्रयी
समीचीनमेव भगिनि. गन्धाश्रयी पृथ्वी, गन्धाश्रयिणी अथवा किमपि पृथ्वी, गन्धाश्रयत्वं पृथिव्याम् इति सत्यमेव. परन्तु तत्र सरला भगिनी यदुक्तवती, कथञ्चित् गन्धः जले अपि आगच्छति खलु, स्वपरम्परासम्बन्धेन जले आगच्छति एव गन्धः. तर्हि तादृशगन्धाश्रयत्वं जले अपि भवितुम् अर्हति इति वार्ता. इति किञ्चित् चिन्तनीयं.
गन्धाश्रेग्रेन्स् उदाहरणा सन्ति जले, गन्धः अस्ति
न, उदाहरणानि न सन्ति, परन्तु नैयायिकरीत्या चिन्तयामश्चेत् परिष्कारः एवमस्ति, समवायसम्बन्धेन गन्धाश्रयत्वं पृथिव्याः लक्षणम् इति. अधुना समीचीनमस्ति खलु, दोषः नास्ति किल? यद्यपि परम्परासम्बन्धेन स्यात् गन्धः जले, गन्धः पृथिव्यामस्ति, पृथ्वी जले अस्ति इति चिन्तयतु, तर्हि स्वसमवायिसंयुक्तत्व स्वसमवायिसंयोगेन इति भवति गन्धः जले. तादृशपरम्परासम्बन्धः न अपेक्षितः लक्षणसमन्वये, समवायसम्बन्धमेव स्वीकृत्य समवायसम्बन्धेन गन्धाश्रयत्वं पृथिव्याः लक्षणम् इति परिष्करणीयम् इति. अस्तु अस्तु, इति किञ्चित् चिन्तनमासीत्. समवायसम्बन्धेन इति न वदामश्चेत् जले अपि गन्धः आगच्छति, परम्परासम्बन्धेन स्वाश्रयसंयोगेन एतत् सर्वम् आगच्छति. तद् निवारणाय समवायसम्बन्धेन गन्धाश्रयत्वं पृथिव्याः लक्षणम् इति वक्तव्यम्. समीचीनं वा? अस्तु.
यद्यपि अस्मिन् पुस्तके तथा न दत्तम् अस्ति खलु?
तथा न दत्तं, किन्तु वर्गे उक्तमासीत् इति कृत्वा उक्तवती.
ओ अस्तु अस्तु. सामान्यतया तत्र तर्कसङ्ग्रहपुस्तके तथा अस्ति वा भगिनि, समवायसम्बन्धेन गन्धाश्रयत्वं पृथ्व्याः लक्षणमिति?
प्रायः स्यात् भगिनि, नास्ति इति भाति, तत्रापि न उक्तमासीत्, वयं किञ्चित् कृतवन्तः खलु द्रोणमध्ये वर्गे. परन्तु चिन्तनार्थं, यतोहि अधुना पुष्पस्य कणाः वायुना आगच्छन्ति चेत् वायौ अपि गन्धः भवति खलु, जले एव न, वायौ अपि गन्धः इति अनुभवामः. तर्हि गन्धः कुत्र कुत्र वर्तते इति प्रश्नः आगच्छति एव. उत्तरमस्ति यत् गन्धः केवलं पृथिव्यां, पृथिवी अन्यत्र कुत्रापि संयुक्ता भवेत् जले वा वायौ वा इति भिन्ना वार्ता.
तर्हि अत्र अतीव्यादोषवारणाय समवायसम्बन्धेन इति योजयामः खलु?
हां, समवायेन सत्यमेव. आश्रयत्वं तु अन्यत्र कुत्रापि आगच्छति इति कृत्वा. अस्तु अस्तु, समीचीनं तर्हि इतः अग्रे तु वयं पठितवन्तः. इतः अग्रे लक्ष्यम् इत्युक्ते किं? ज्ञातुम् इष्टः पदार्थः लक्ष्यम्, अपि च तस्मिन् विद्यमानः विशिष्टः धर्मः लक्षणमिति. अग्रिमपुटं गच्छन्तु. अव्याप्ति, अतिव्याप्ति, असम्भवदोषः इत्यपि वयं पठितवन्तः. इतः अग्रे नित्यत्वादिविभागः इति अस्ति खलु, ततः आरभ्य पठेम. लक्ष्मी भगिनी पठितुम् इच्छति वा, यतो हि भवती गच्छति इति? सर्वे पश्यन्ति, एकनिमिष, सर्वे पश्यन्ति खलु नित्यत्वादि विभागः, पृष्ठसङ्ख्या 39. अस्तु भगिनि.
अस्तु. प्रकृतम् अनुसरामः. गन्धः पृथ्व्याः लक्षणम् इति युक्तम्. लक्षणज्ञानेन सामान्यतः पृथ्व्यां ज्ञातायां विशेषजिज्ञासा भवति. तत्र उक्तं नित्या अनित्या च, नित्या परमाणुरूपा, अनित्या कार्यरूपा इति. यस्य उत्पत्तिः नास्ति, अर्थात् प्रागभावो न भवति, एवं ध्वंसो अपि न भवति, सः नित्यः, यथा आकाशः. न हि तस्य प्रागभावः, ध्वंसः वा वर्तते. यस्य प्रागभावप्रतियोगित्वं, ध्वंसप्रतियोगित्वं च, सः अनित्यः. अस्तु. अस्तु. गन्धः पृथ्व्याः लक्षणम् इति अधुना एव दृष्टवन्तः. लक्षणज्ञानेन किं ज्ञायते इत्युक्ते, पृथ्व्याः विशेषगुणं किम् अस्ति इति. पृथ्व्यां ज्ञातायां विशेषजिज्ञासा भवति. तत्र उक्तं नित्या अनित्या च. पृथ्व्यां
ज्ञातायाम् इति कीदृशप्रयोगः भगिनि?
पृथ्व्यां ये गुणाः सन्ति, पृथ्वीविषये या गुणाः, ये गुणाः सन्ति, ते या विषयाः सन्ति, ये विषयाः सन्ति, ते एव पृथ्वी
पृथिव्यां ज्ञातायाम् इति चेत्, यदा पृथिवी ज्ञायते, भवती यदुक्तवती गन्धेन पृथिवी यदा ज्ञायते इति सर्वं यदा जानीमः तदा सति सप्तमी, यदा तदा इति अर्थे. पृथिव्यां ज्ञातायां किम् उदेति पुनः?
नित्या अनित्या, नित्या अनित्या च द्वैविध्यं भवति तत्र. यत् नित्यं भवति तत् परमाणुरूपा, यत् अनित्यं भवति तत् कार्यरूपा. उदाहरणत्वेन घटः इति, यत् पृथ्व्यां पृथ्वीपरमाणुनां निर्मितः भवति. यस्य उत्पत्तिः नास्ति, अर्थात् प्रागभावो न भवति. सो अत्र अस्मिन् वाक्ये नित्यमिति किम् इति, नित्यस्य संज्ञा अत्र दत्तं. यः पदार्थः नित्यः, तस्य उत्पत्तिः न भवति, तस्य ध्वंसः अपि न भवति. आकाश, उदाहरणत्वेन आकाशः तादृशपदार्थः.
भगिनि, उत्पत्तिः न भवति इति सत्यम्, उत्पत्तिः न भवति इत्यस्य अर्थः कः?
उत्पत्तिः न भवति इत्युक्ते यस्य
वाक्यं पठतु. यस्य उत्पत्तिः नास्ति,
यस्य उत्पत्तिः नास्ति इत्युक्ते यत्
अग्रे पठतु भगिनि. अर्थात्
प्रागभावो न भवति. अस्तु. उत्पत्तिः नास्ति इत्युक्ते प्रागभावः कदापि न भवति इत्युक्ते सर्वदा तद्भवति एव, अतः प्रागभावः इति अभावः न वर्तते एव इति वक्तुं शक्नुमः.
प्रागभावः न भवति, अपि च अन्यः कः अभावः न भवति?
प्राग्ध्वंसः अभावः अपि न भवति.
समीचीनं, सम्यक्. उत्पत्तिः न भवति इति चेत् प्रागभावः नैव भवति, अपि च ध्वंसः न भवति इत्युक्ते प्रध्वंसाभावः अपि न भवति,
तादृशः
नित्यः इति. अस्तु अग्रे.
उदाहरणत्वेन आकाशः तादृशः एकः द्रव्यः, तस्य प्रागभावः अपि न भवति, ध्वंसः अपि न वर्तते आकाशस्य. यस्य प्रागभावप्रतियोगित्वं ध्वंसप्रतियोगित्वं च सः अनित्यः. यस्मिन् द्रव्ये यस्मिन् द्रव्ये प्रागभावस्य प्रतियोगित्वम् अस्ति अथवा ध्वंसप्रतियोगित्वमपि अस्ति, सः अनित्यः. घटे घटप्रतियोगित्वम् अस्ति, प्रागभावस्य घटाभावस्य प्रतियोगित्वम् अस्ति इति कृत्वा घटः अनित्यः इति वक्तुं शक्नुमः.
हा, बहु समीचीनं भगिनि. घटस्य प्रागभावः भवितुम् अर्हति वा?
आम्.
तर्हि घटप्रागभावस्य प्रतियोगी कः?
घटः एव.
घटः, तस्मिन् प्रागभावप्रतियोगित्वम् अस्ति. अपि च घटस्य ध्वंसः भवितुम् अर्हति वा?
आम्, घटस्य ध्वंसः भवितुम् अर्हति. तस्य घटाभावः एव घटस्य ध्वंसस्य प्रतियोगित्वं.
ध्वंसप्रतियोगित्वं कुत्र अस्ति?
घटे अस्ति, ध्वंसप्रतियोगित्वं घटे अस्ति.
अतः घटः
अतः घटे प्रागभावप्रतियोगित्वमपि अस्ति, ध्वंसप्रतियोगित्वमपि अस्ति, अतः सः नित्यः अनित्यः.
अनित्यः. आकाशे तादृशप्रतियोगित्वम् अस्ति वा?
न, आकाशे नास्ति, अतः सः नित्यः.
समीचीनम् इति नित्यपदार्थवर्णनमासीत्, यस्य प्रागभावः ध्वंसः न वर्तते. नाम यस्य कस्यापि प्रागभावप्रतियोगित्वं ध्वंसप्रतियोगित्वं नास्ति तादृशः पदार्थः नित्यः. ते पुनः नैयायिकभाषया वदन्ति उत्पत्तिशून्यत्वे सति नाशशून्यत्वम् इति नित्यम्. उत्पत्तिशून्यत्वम् अपि च नाशशून्यत्वं, तत्र सति सप्तमीप्रयोगः. पुनः उत्पत्तिशून्यत्वे सति नाशशून्यत्वम् इति नित्यम्. उत्पत्तिशालित्वे सति नाशशालित्वम् अनित्यम्. उत्पत्तिशालित्वम् इत्युक्ते तस्मिन् उत्पत्तिः अस्ति इति. तर्हि उत्पत्तिशालित्वे सति नाशशालित्वम् अनित्यम् इति वदन्ति. समीचीनम्. अस्तु, तर्हि अग्रे गच्छेम. आन्ड्रे महोदय अग्रे पठति किं?
महोदय एकनिमिषं, भवती
नाशशून्यत्वम् इति नित्यम्, उत्पत्तिशालित्वे सति नाशशालित्वम् इति अनित्यम्.
शालित्वम् इत्युक्ते किं?
युक्तम् इति, गुणशाली इति वदामः खलु. गुणशाली इत्युक्ते तस्मिन् गुणः अस्ति, क्रियाशाली, तद्वत् उत्पत्तिशाली, बुद्धिशाली, तादृशं युक्तम् अस्ति इति. अस्तु, तर्हि इतः
कुत्र स्थागितम् अस्माभिः?
अधुना पृष्ठसङ्ख्या 40 इति. ततः अनित्यपृथिवी.
इदानीम् अनित्यपृथिवीरूपस्य घटस्य प्रागभावोऽपि भवति, ध्वांसोऽपि. अतः प्राक् अभावप्रतियोगित्वं घटे, ध्वांसप्रतियोगित्वम् अपि घटे. इदम् एव घटे विद्यमानम् अनित्यत्वम्. एवम् अनित्यत्वे ज्ञाते तदभावः नित्यत्वं गागनादौ ज्ञातुं शक्यते. प्रागभावप्रतियोगित्वस्य अभावः ध्वंसप्रतियोगित्वस्य च अभावः गगने अस्ति. इदम् अभावद्वयम् एव नित्यत्वम्. तद्युक्ता नित्या पृथिवी परमानुरूपा निरूपिता, तस्यामपि अस्ति इदमभावद्वयम् इति परमाणुः नित्यत्वम् आगतम्. अनित्य तु गतादिरूप उक्ता एव. भवतु इदानीं किं तत्र उक्तम् अस्माभिः इदानीं प्रागभाव
वाक्यशः गच्छतु सर्वे अवगच्छेयुः इति
भवतु अनित्यपृथिवीरूपस्य घटस्य प्रागभावः अपि भवति ध्वांसोऽपि भवति इति उक्तम् अस्माभिः इदानीम् अनित्यत्वानित्यत्वविचारे प्राक् एव अस्माभिः तत्र विचारः कृतः प्रागभावः यस्य ध्वंस अभावश्च यस्य अस्ति तस्य अनित्यत्वम् एव तयोरभावे नित्यत्वम् आगच्छति इदानीं तौ उभौ नाम प्रागभावः ध्वंस अभावः इमे घटे स्तः अतः प्रागभावप्रतियोगित्वं च ध्वंसभावप्रतियोगित्वं घटे अस्ति नाम घटः प्रागभावस्य नाम घटः घटप्रागभावप्रतियोगी अपि च घटध्वंसभावप्रतियोगिः प्रतियोगी एव अस्ति एवं वा
सत्यम्
अतः इदमेव घटे विद्यमानम् अनित्यत्वम् एवम् अत एव तद् विद्यमानम् अनित्यत्वम् एवम् उक्तम् अस्माभिः यस्य प्रागभावः प्रतियोगि अस्य प्राक्भावः प्रध्वंसभावः च स्तः तस्य अनित्यत्वम् अथवा एवम् अथवा यः भाव अतः यः अभावद्वयप्रतियोगी यः सः अपि अनित्यः एवम् अनित्यत्वे ज्ञाते तदभावनित्यत्वं गगनादौ ज्ञातुं शक्यते इदानीम् अनित्यम् अनित्यत्वं वा अनित्यत्वं येन प्रकारेण अस्माभिः ज्ञातः ज्ञातं तेन प्रकारेण एव अस्माभिः नित्यत्वं ज्ञातुं शक्यते नाम अस्य अनित्यत्वं नास्ति अस्य नित्यत्व अस्य अनित्यत्वस्य अभावः तस्य नित्यत्वम्
इति किञ्चित् भ्रमजनिका वार्ता स्यात् तदभावः कस्य अभावः पुनः अनित्यत्वस्य अभावः अभावः नित्यत्वम् इति आकाशादौ अस्ति
अनित्यत्वस्य अभावः नित्यत्वम् एवम् इदानीं प्राक्भावप्रतियोगित्वस्य अभावः ध्वंसप्रतियोगित्वस्य च अभावः गगने एतत् एवम् उक्तं पुनरेकवारं यत् घटम् आदाय यत्र प्राक्भावप्रतियोगित्वम् अस्ति ध्वंस अभावप्रतियोगित्वम् अस्ति च तदेव तदेव गगने आकाशे नास्ति अतः एव प्राक् अभावप्रतियोगित्वस्य अभावः ध्वंसप्रतियोगित्वस्य च अभावः आकाशे एव अस्माभिः उपलभ्यते इदम् अभावद्वयम् एव नित्यत्वम् एवम् इदानीं यत्र अभावद्वयं दृश्यते सिद्ध्यति तत्र नित्यत्वम्
अथवा किम् अभावद्वयम् इति वदतु यतोहि आरम्भे परिच्छेदस्य आरम्भे किम् आसीत् यत्र प्रागभावः
अत्र तु प्रागभावप्रतियोगित्वस्य इति मन्ये इदं प्रतियोगित्वद्वयस्य अभावः
समीचीनं सम्यक् नाम अत्र अभावद्वयमेव नित्यत्वम् इति उक्तमस्ति खलु पूर्वं तु उक्तं नित्यत्वम् इत्युक्ते अभावद्वयं नास्ति इति परन्तु अत्र उक्तम् इदम् अभावद्वयं नित्यत्वं तर्हि किञ्चित् चिन्तनं कुर्मश्चेत् इदम् अभावद्वयं किम् इति चेत् पूर्वस्मिन् वाक्ये यथा महोदयेन उक्तं प्रागभावप्रतियोगित्वाभावः ध्वंसप्रतियोगित्वाभावः इति अभावद्वयम् एव नित्यत्वम् अत्र भेदः अस्ति प्रागभावः च ध्वंसाभावः नित्यत्वम् इति न उक्तं यत्र प्रागभावः ध्वंसाभावः तत्र अनित्यत्वमेव परन्तु प्रागभावप्रतियोगित्वस्य अभावः अपि च ध्वंसप्रतियोगित्वस्य अभावः एव नित्यत्वम् इति उक्तम् अस्तु महोदय समापयतु कृपया
एवं तद् तत् युक्ता नित्या पृथिवी परमानुरूपा तत्र उद्देशग्रन्थे उक्तं स्यात् इति मन्ये. अथवा उद्देशग्रन्थे अस्माभिः एवं दृष्टं तत्र परमाणुरूप पृथिवी नित्या, यतोहि परमाणुषु प्रतियो ध्वंसप्रतियोगित्वं नास्ति च, अपि च प्रागभावप्रतियोगित्वम् अपि नास्ति. तस्यामपि अस्ति इदम् अभवद्वयम्. एवं परमाणुः नित्यत्वम् आगतम्, एवम् अनित्य च गतादिरूप उक्तः एव. यतोहि गतादीनां प्रागभावप्रतियोगित्वम् अपि च प्रधानसभावप्रतियोगित्वम् एव.
समीचीनं महोदय, सम्यक् अस्तु. सर्वेषां मनसि स्पष्टता अस्ति वा अस्य विषये? कोऽपि प्रश्नः? केवलं पदानां क्रीडा एव, प्रागभावप्रतियोगित्वाभावः अपि च ध्वंसप्रतियोगित्वाभावः नित्यत्वं. प्रागभावप्रतियोगित्वं ध्वंसप्रतियोगित्वं च अनित्यत्वम् इति वक्तुं शक्यते. अस्तु, तर्हि मम मनसि अपि तेषु दिनेषु प्रश्नः आसीत्, अधुना किं प्रागभावः अपि च प्रध्वंसाभावः विषये एव उक्तवन्तः. पुनः अभावद्वयं वर्तते खलु, अभावद्वयम् अवशिष्टं, तद् किम्? तर्हि किञ्चित् चिन्तनं कुर्मः. तत्र यद् नित्यमस्ति, नित्यवस्तुषु प्रागभावः अपि च प्रध्वंसाभावः न भवति इति जानीमः, तद् अङ्गीकृतमपि, आकाशे तथा अस्ति इति. अधुना आकाशस्य अन्योन्याभावः वर्तते वा? किं चिन्तनं भानुचैतन्यमहोदय? तूष्णीमस्ति लक्ष्मीभगिनी.
आकाशस्य अन्योन्याभावः वर्तते भगिनि. अन्योन्याभावः स्वं विहाय सर्वत्र वर्तते. तादात्म्यसम्बन्धेन पदार्थः तिष्ठति, स्वं विहाय सर्वत्र अन्योन्यभावः वर्तते एव इति अहं चिन्तयामि.
सम्यक् भगिनि. तर्हि आकाशस्य अन्योन्यभावः तु वर्तते खलु, नित्यवस्तूनामपि अन्योन्यभावः अवश्यं वर्तते इति अङ्गीकर्तव्यम् अस्ति किल? सर्वे किं चिन्तयन्ति? अन्योन्याभावः इत्युक्ते घटः पटः न, अथवा आकाशः कालः न, आकाशः घटः न, तादृशाभावः त्वं विहाय कोऽपि ध्वनिः अस्ति प्रायः भानुचैतन्यमहोदय, इति कृपया बहिः अस्ति चेत् किञ्चित् म्यूट् करोतु, यदा वदति तदानीं म्यूट् इति. अस्तु, तर्हि आकाशस्य तु अन्योन्याभावः वर्तते एव, केवलं प्रागभावः प्रध्वंसाभावः नास्ति इति वक्तव्यम्. अपि च परमाणवः, परमाणूनामपि अत्यन्त अन्योन्यभावः अस्ति एव, एकः परमाणु अपरः परमाणु न इति अभावः. परन्तु अत्यन्ताभावविषये किं चिन्तनम्?
परमाणोः परमाणवः परमाणुविशेषः इति स्वीक्रियते खलु, अतः परमाणौ द्वयोः परमाणोः मध्ये विषये अत्यन्तभावः अस्ति इति मन्ये. इत्युक्ते
अत्यन्त भगिनि, अन्योन्यभावः तु अवश्यम् अस्ति, परन्तु अत्यन्तभावः इति सामान्यविचारः, घटः अत्र नास्ति, घटः भूतले नास्ति, तादृशविचारः.
यदि यथा पूर्वं उदाहरणं दृष्टवन्तः, जलं स्वातिनक्षत्रजलम् इत्यादि, तादृशम् एव अत्र अत्र परमाणु अपरमाणु स्वीकुर्मः चेत् तस्मिन् एकः विशेषः अस्ति. अन्यः का परमाणु स्वीकुर्मः तत्र अन्यत्र किमपि अन्यविशेषः सन्ति इति कृत्वा आपरमाणु आविशेषः विशेषत्वम् एव तस्मिन् परमाणौ अस्ति
इति सत्यम् इति अन्योन्याभावस्य विषयः. अपरमाणुः परमाणु नास्ति इति अन्योन्याभावः. अहं तु अत्यन्ताभावविषये वदामि. अत्यन्तभावः अपि भवितुम् अर्हति खलु.
आकाशः नित्यः अस्ति खलु. आकाशः नित्यः विभुद्रव्यं सर्वत्र
इति एकनिमिषम् आगच्छामि. प्रथमतया परमाणुः अत्र अस्ति तत्र नास्ति खलु. यः कोऽपि परमाणुः अत्र अस्ति सः तत्र नास्ति इति कृत्वा अत्यन्ताभावः तु भवति एव परमाणुनां. तत्र अङ्गीकारः वर्तते वा? अत्यन्ताभावः तथैव खलु. घटः नास्ति. घटस्य आनयनेन घटाभावः नष्टः इति अत्यन्ताभावः. तद्वत् भवितुम् अर्हति. अधुना विद्या भगिनी भवत्याः चिन्तनम् अग्रे. आकाशः इति भगिनि
अत्यन्तभावः इति तु सत्यं, परन्तु आकाशस्य अत्यन्तभावः
हा इति ममापि प्रश्नः आसीत्. उत्तरं तावत् समीचीनतया न दत्तं, परन्तु अत्र किञ्चित् द्रोणमहोदयस्य वर्गे अपि चर्चा जाता आसीत् खलु. आकाशः कुत्रापि न आश्रितः इत्युक्ते आकाशः नित्यद्रव्यं सर्वत्र अस्ति, तर्हि तस्य अत्यन्ताभावः कथं वा स्यात् इति प्रश्नः खलु. तर्हि आकाशः कुत्रचिदपि अथवा नित्यद्रव्याणि कुत्रचिदपि न आश्रितः, तया दृष्ट्या प्रायः अत्यन्ताभावः इति वक्तुं शक्यते इति चिन्तयितुं शक्नुमः. आण्ड्रे महोदय, अन्यत् किमपि अत्र अस्ति वा भवतः चिन्तनम्?
मया तावदेव अपि स्वीकृतं. तेषाम् आश्रयः नास्ति, अतः एव अत्यन्ताभावः तावदेव मया स्वीकृतं. परन्तु
हा इति चिन्तयामि स्म, परन्तु अन्योन्यभावः तु अवश्यमस्ति इति तु स्वीकर्तव्यमेव. सरला भगिनी, किमपि अस्ति वा?
अत्यन्ताभावः नास्ति आकाशे. मम प्रध्वंसाभावः अपि प्राग्भावः नास्ति, तत्र नित्यम् अस्ति. अतः देशकालः अतीतः भवति आकाशः.
हा समीचीनं भगिनि, इति अपि चिन्तयितुं शक्नुमः खलु. विभुद्रव्यम् अत्यन्ताभावः नास्ति इत्यपि प्रायः चिन्तयितुं शक्यते विभु भूत्वा.
अभावः नास्ति इति तत्रापि न वक्तव्यं. प्रतियोगित्वम् अभावप्रतियोगित्वं नास्ति इति, यतोहि परमाणवे किमपि घटः नास्ति इति उक्त्वा तत्रापि घट अभावः परमाणौ स्वरूपसम्बन्धेन स्यात्.
सत्यं.
अतः एव परमाणु अभाव अत्यन्त अभावप्रतियोगित्वं परमाणौ न.
परमाणु नास्ति इति वदति वा महोदय?
प्रतियोगित्वम् अत्यन्ताभावप्रतियोगित्वं कथं भवति
इत्युक्ते, एकः परमाणुः अत्र अस्ति यु एस् ए देशे खलु.
भवतु,
तस्य
तस्य अत्यन्त अभावः यः तस्य प्रतियोगी.
अपरस्मिन् देशे तस्य अभावः विद्यते एव खलु.
परमाणु काल अपि इदानीम् अस्ति.
हा कालदृष्ट्या भगिनि, कालदृष्ट्या परमाणुः नित्यं, परन्तु आकाशः दिक् देश इति दृष्ट्यापि सर्वानुस्यूतः व्याप्तः. परमाणुः तथा नास्ति इति चिन्तनमासीत्. नित्यः इति वार्ता तु किं कालसम्बद्धमेव. कालसम्बद्धम् इति कृत्वा एव प्रायः प्रागभावप्रतियोगित्वम् अपि च ध्वंसप्रतियोगित्वं यस्मिन् नास्ति तादृशः अभावः अस्ति. क्षम्यतां, तादृशपदार्थः नित्यः इति उक्तं. यस्य प्रागभावप्रतियोगित्वं नास्ति, ध्वंसप्रतियोगित्वं, द्वौ अपि कालसम्बद्धविषयौ खलु. अस्तु अस्तु, सम्यक्. तर्हि अधुना किञ्चित् अग्रे सरेम. विद्या भगिनी अग्रे पठति वा?
आं भगिनि. गन्धवती पृथ्वी. गन्धवत्वं पृथ्वीलक्षणम् इत्यनयोः भेदनिरूपणम्. उभयविधपृथ्व्याः गन्धरूपस्य लक्षणस्य च अस्ति आधार अधेयभावः तथा जलस्थले शीतस्पर्शः आपां लक्षणम् इति अत्रापि शीतस्पर्शः आदेयः आपो जलम् अधिकरणम् शीतस्पर्शे आदेयता तन्निरूपित अधिकरणता जले अधिकरणताश्रयः जलम् अधिकरणताश्रयत्वं जले अस्ति इति समन्वयः लक्षणस्य लक्ष्ये विद्यमानत्वं यत् वर्णीयते सः समन्वयः इति उच्यते तर्हि अत्र गन्धवती पृथ्वी गन्धवत्वं पृथ्व्याः लक्षणम् इत्यनयोः भेदनिरूपणम् अत्र पूर्वस्मिन् पुटे वयं पूर्वस्मिन् पुटे नास्ति पूर्वं यत्र लक्षणवाक्यं दृष्टवन्तः तत्र गन्धवती पृथ्वी इति अस्ति अपि च गन्धवत्वं पृथ्वी पृथ्वी लक्षणं द्वयोः भेदः कः इति अत्र अस्मिन् परिच्छेदे अग्रे दत्तमस्ति अत्र उभयविधपृथ्व्याः इत्युक्ते उभयविधपृथ्वी इत्युक्ते नित्यरूपपृथ्वी अनित्यरूपपृथ्वी उभयविधपृथ्व्याः गन्धरूपस्य लक्षणस्य च अस्ति आधार आदेयभावः इत्युक्ते गन्धः एव आदेयः पृथ्वी आधारः द्वयोः आधारादेयभावः नित्यपृथ्वी अपि च अनित्यपृथ्वी अनित्यपृथ्व्यां गन्धः अस्ति नित्यपृथ्व्यामपि गन्धः अस्ति द्वयोः आधारादेयभावः अपि अस्ति तथा जलस्थले शीतस्पर्शः आपां लक्षणम् अत्रापि शीतस्पर्शः आदेयः आपो जलम् अधिकरणम् एवमेव यत्र अत्र शीतस्पर्शः आपां लक्षणं शीतस्पर्शः तत्र लक्षणवाक्यमस्ति जलस्य तत्रापि शीतस्पर्शः एव आदेयः जलम् अधिकरणम् इति अस्ति शीतस्पर्शे आदेयता अस्ति तन्निरूपित अधिकरणता जले अस्ति जलम् अधिकरणं
सम्यक् आसीत् किन्तु अपाम् इति कीदृशपदम्
अपः अपामिति षष्टि बहुवचने
हा समीचीनं गन्धवत्वं पृथिव्याः लक्षणम् इति यथा वदामः तद्वत् शीतस्पर्शः अपां लक्षणम् इति तत्र बहुवचने किमर्थम् इति
आप् स्त्रीलिङ्गे नित्य बहुवचनं
सम्यक् आप् इति नित्य बहुवचनान्तशब्दः तर्हि षष्टिविभक्त्यमपि बहुवचनान्तत्वमेव शीतस्पर्शः अपां लक्षणम् अपाम् इत्युक्ते जलस्य इति चिन्तयन्तु शीतस्पर्शः जलस्य लक्षणम् अस्तु
पुनः
आपः आपः इति प्रयोगः भवति अप् इति प्रातिपदिकम् किं
प्रातिपदिकम् आपः तस्य प्रातिपदिकं किम्
अप् इति चिन्तयामि अब्धि इति अस्ति खलु तत्रापि अप् इति अब्धि इत्युक्ते सागरम् इति तत्र अप् इति प्रातिपदिकं किन्तु नित्यबहुवचनवचनान्तम् इति कृत्वा आपः इति भवति प्रथमाविभक्त्याम् अपाम् इति तु षष्टिविभक्त्या इति अस्ति अस्तु भगिनी अग्रे कुत्र आसीत्
शीतस्पर्शे आदेयता तन्निरूपित अधिकरणता जले अधिकरणताश्रयः जलम् अधिकरणता जले अस्ति शीतस्पर्शः एव आदेयः तस्मिन् आदेयता अस्ति अधिकरणताश्रयत्वं जले अस्ति इति समन्वयः अधिकरणताश्रयत्वं जले अस्ति इति समन्वयः तत्र समन्वयः इत्युक्ते लक्षणस्य लक्ष्ये विद्यमानत्वं यद् वर्णीयते सः समन्वयः इति उच्यते अत्र लक्षणस्य लक्ष्ये विद्यमानत्वम् अत्र लक्षणमस्ति गन्धः तत्र तादृश गन्धः पृथ्व्याम् अस्ति इति वर्णयति तदेव समन्वयः इति अत्र गन्धवत्वं पृथ्व्याः लक्षणम् इति वदामः चेत् तत् तत्र समन्वयः भवति यतोहि अत्र लक्ष्ये विद्यमानत्वं लक्ष्ये धर्मः विद्यमानत्वधर्मः वर्ण्यते इति कृत्वा समन्वयः
हा समीचीनं भगिनि अत्रापि किं वक्तव्यमासीत् हा शीतस्पर्शे आधेयता इति तु जानीमः यतोहि शीतस्पर्शः आधेयता तर्हि शीतस्पर्श निष्ठ अधेयता निरूपित जलनिष्ठ अधिकरणता अधिकरणताश्रयः जलम् इति उक्तम् अधिकरणताश्रयत्वं जले अस्ति इति पुनः अत्रापि समवायसम्बन्धेन शीतस्पर्शः शीतस्पर्शाश्रयत्वं जलस्य लक्षणम् इति वक्तुं शक्यते यथा पूर्वं चर्चितम्। अस्तु, अपि च भगिन्या उक्तमेव, समन्वयः इत्युक्ते लक्षणस्य लक्ष्ये विद्यमानत्वम् इत्युक्ते तत्र पश्यन्तु सर्वत्र आधारादेयभावः प्रदर्शितः खलु। वत् वति इति मतुप्रत्ययः, मतुप्रत्ययेन आश्रयः अधिकरणं सूच्यते। पुनः गन्धवत्वम् इत्युक्ते पुनः तत्र आधाराधेयभावः सूच्यते। एतत् सर्वं कनेक्टेड् सीक्वेन्स् इव अस्ति इति एव समन्वयः इति उच्यते लक्षणस्य लक्ष्ये विद्यमानत्वम्। अस्तु, अग्रे सरेम तर्हि। अस्तु,
तत्र समन्वयः इति नूतनपदं किमर्थम्?
समन्वयः इत्यस्य अर्थं पश्यति चेत् कनेक्टेड् सीक्वेन्स् इति अस्ति महोदय। तर्हि एतत् सर्वं तथैव अस्ति इति मन्ये। तदर्थं लक्षणम् इति यदस्ति तद् लक्ष्ये अस्ति केनचित् सम्बन्धेन, समवायसम्बन्धेन एव वक्तव्यं, गुणः गुणी गुणिनी इति चेत् इति कृत्वा तादृशलक्षणस्य लक्ष्ये विद्यमानत्वं यद् वर्ण्यते सः समन्वयः इति उक्तम्। समन्वयः इति पुल्लिङ्गपदमस्ति।
अस्तु,
अग्रे विजि भगिनि।
परन्तु सङ्ग्रहे गन्धवती पृथ्वी शीतस्पर्शस्य आपः इत्यादि लक्षणवाक्यानि लौकिकव्यवहारः इव भवन्ति। यथा सास्नादिमति गौः इति लौकिकव्यवहारः, यथा वा नीलो घटः इति व्यवहारः। परन्तु नैयायिकव्यवहारे लक्षणवाचकं यत् पदं ततः परं भाववाचकप्रत्ययं कृत्वा लक्ष्यवाचकपदोत्तरं च षष्टिं प्रयुञ्च्यते। यथा गन्धवत्वं पृथिव्याः लक्षणम् इति। परन्तु सङ्ग्रहे गन्धवती पृथ्वी शीतस्पर्शवत्या आपः इति लक्षणद्वयं ज्ञातवन्तः अपि अधुना इत्यादि लक्षणवाक्यानि लौकिकव्यवहारः इव भवन्ति।
हलो, गन्धवती पृथ्वी शीतस्पर्शवत्यः आपः लौकिकव्यवहारः, परन्तु अत्र विशिष्टरीत्या लक्षणवाक्यं रचितं यथा शीर्षके अस्ति गन्धवत्वं पृथ्वी लक्षणं, तस्य विषये अधुना चिन्तयामः।
यदा शासनादिमतिः गौः इति लौकिकव्यवहारः, यथा वा नीलो घटः इति व्यवहारः, सर्वं शासनादिमति गौः नीलरूपं घटः इत्यपि व्यवहार।
एकनिमिषं, नीलरूपं घटः इति न उक्तं, तत्र नीलः घटः इति उक्तं।
नीलः घटः, नीलो घटः,
तयोः विभक्ति का भगिनि?
नीलः घटः, नीलः विशेषणं, घटः
विशेषम् इति सत्यं, विभक्तिः का?
प्रथमविभक्ति,
हा, सास्नादिमति गौः, तत्र विभक्ति का?
सास्नादिमति गौः, सास्नादिमति
का विभक्तिः तत्र?
तदपि प्रथमाविभक्ति एव,
प्रथमविभक्ति खलु सास्नादिमति, हा, इति प्रथमविभक्ति, तत्रापि विशेषणविशेषभावः,
विशेषणविशेष प्रथमाविभक्ति एव।
गन्धवती पृथ्वी इत्यत्र
गन्धवती पृथ्वी प्रथमा विभक्ति,
हा, शीतस्पर्शवत्यः आपः उभयोः का विभक्ति? प्रथमविभक्ति खलु सर्वत्र तथैव अपि च बहुवचने शीतस्पर्शवत्यः
प्रथमविभक्तिः
इति लौकिकव्यवहारः
परन्तु नैयायिकव्यवहारे लक्षणवाचकं यत् पदं ततः परं द्वातलाधिभाववाचकप्रत्ययं कृत्वा लक्ष्यवाचकपदो उत्तरं च षष्ठीं प्रयुज्यते. सर्वत्र प्रथमाविभक्तिः लौकिकव्यवहारे उपयुज्यते प्रयुज्यते. नैयायिकव्यवहारे षष्ठीविभक्तिः प्रयुज्यते. उपरि लक्ष्यवाचकं
पुनः पठतु. लक्षणवाचकपदं वदतु.
लक्षणवाचकं यत् पदं ततः परं त्वतलादि न अवगतं भगिनि. त्वतलादि
गतवर्गे अपि पठितवन्तः खलु भगिनि. त्वा प्रत्ययः कीदृशप्रत्ययः?
त्वप्रत्ययः त्वतलादि भावः वाचकप्रत्ययं कृत्वा लक्ष्यवाचक पदो उत्तरं च षष्ठीं प्रयोज्यते.
अग्रे पठतु.
यथा गन्धवत्वं पृथिव्याः लक्षणम् इति. अत्र पृथिव्याः षष्ठीविभक्ति. गन्धवत्वं त्वप्रत्यय योजयति.
त्वप्रत्ययं योजयित्वा का विभक्ति तत्र
योजयित्वा षष्ठी पृथिव्याः षष्ठीविभक्ति योजयित्वा लक्षणम् इति नैयायिकाः.
समीचीनं. किन्तु गन्धवत्वम् इत्यस्य का विभक्तिः? गन्धवत्वम् इत्यस्य विभक्ति का?
गन्धवत्वं
सुन्दरत्वं का विभक्तिः? प्रथमाविभक्ति खलु. अस्तु. तर्हि पृथ्वी इति लक्ष्यं तर्हि लक्ष्यवाचकपदोत्तरं षष्टिविभक्तिः, अपि च लक्षणमिति गन्धः अथवा गन्धवती इति यत्पदमस्ति. तर्हि लक्षणवाचकपदस्य उत्तरं त्वातलादिभाववाचकप्रत्ययम्. अत्र तु गन्धवत्वं गन्धवत् प्लस् त्वम् इति त्वप्रत्ययम् उपयुज्य लक्षणं क्रियते.
समीचीनं भगिनि, अवगतम्.
गन्धवत्वं पृथिव्याः लक्षणम्. एवमेव अपां लक्षणं किम् इति?
अपां शीतस्पर्शवत्वं जलस्य लक्षणम्
इति वक्तुं शक्यते. उपरितनपरिच्छेदे तु शीतस्पर्शः अपां लक्षणमिति उक्तं. तत्र वत् अपि नास्ति, त्वम् अपि नास्ति. वार्ता अस्ति यत् शीतस्पर्शः अपां लक्षणम् इत्यत्र त्व नास्ति, वत् अपि नास्ति. केवलं शीतस्पर्शः इति साक्षात् गुणः उक्तः. परन्तु अत्र गन्धवत्वं पृथिव्याः लक्षणम् इति उक्तं. तद् किम् इति, किमर्थम्, अपि च तस्य अर्थः कः इति अग्रे किञ्चित् पठेम. अस्तु.
अस्तु भगिनि.
अस्तु तर्हि न सरला भगिनी इति अग्रे.
अस्तु. तेषाम् अयम् आशयः. लक्ष्यगतं कञ्चन असाधारणं धर्मं ज्ञात्वा आशयस्य लक्ष्यस्य ज्ञानं लक्षणविचारे इष्टम्. प्रथमान्तपदैः सास्नादिमति, गन्धवती, शीतस्पर्शवत्यः इत्यादिभिः तु लक्ष्यमेव निर्दिश्यते, न तु तद्गत धर्मः. सास्नादिमति काः? गौ एव. गन्धवती काः? पृथ्वी एव. शीतस्पर्शवत्यः काः? आपः एव. एवं च लक्ष्यवाचकपदस्य या विभक्ति तत् समानविभक्तिकं यदि लक्षणवाचकपदकं पदं भवेत् तदा विद्यमानोऽपि आधार आध्यायभाव न बुध्येत्. अतः तद् ज्ञानाय लक्षणवाक्यं यथा स्यात् तथा स्पष्टः धर्मबोधः स्यात्।
अस्तु भगिनी, तावत् किञ्चित् प्रतिपादयतु।
अस्तु अस्तु, तेषाम् अयम् आशयः। यथा उपरि वयं दृष्टवन्तः गन्धवत्यं पृथ्व्याः लक्षणं, तस्य आशयः किं गन्धवत्वं पृथ्व्याः लक्षणं, तस्य आशयः किम् अस्ति? लक्ष्यगतं कश्चन असाधारणधर्मं ज्ञात्वा आशयस्य लक्ष्यस्य ज्ञानं लक्षणविचारे इष्टं। लक्ष्यमस्ति पृथ्वी उदाहरणे, तस्य लक्षणं अस्ति गन्धवतत्वम् इति असाधारणधर्म। असाधारणधर्म यत् अव्याप्ति अतिव्याप्ति असम्भवदोषरहित अस्ति, तस् अस्ति असाधारणधर्म। लक्ष्ये यत् अस्ति तस् कथं तस्य प्रकटीकरणं भवति? प्रथमान्तपदैः शासनादिमति, यदि वयं वदामः शासनादिमति इत्युक्ते तत् शासना अस्ति लक्षण गुण गौः यद् गुण अस्ति शासना, तत् लक्षणम् अस्ति, तस्य आधार अस्ति गौः। सो शासनादिमति मतु प्रत्यय प्रयुज्य शासनादिमति स्त्रीलिङ्ग अस्ति, शासनादिमति तस्य शासना तस्य अधिकरणं सूचयति। शासनादिमति प्रथमा विभक्ति भवति, आधेय आधारभाव इति सूचयति। गन्धवती अपि गन्ध अस्ति पृथिव्या लक्षणं, गन्ध मतु प्रत्य उपयुज्य गन्धवती इति प्रथमा विभक्ति भवति पृथिव्याः। गन्धस्य अधिकरणम् अस्ति गन्धवती, समान अर्थकं भवति अधिकरणं। शीतस्पर्शवत्यः आपः जलस्य लक्षणम् अस्ति शीतस्पर्श, आपः अस्ति प्रथमा विभक्ति बहुवचन, तस्य मतु प्रत्य यदि उपयोगं कुर्मः तद्भवति शीतस्पर्शवत्यः। प्रथमा विभक्ति बहुवचन शीतस्पर्शवती वत्यः इति भवति, नदी शब्द नद्यः इत्यादिभिः तु लक्ष्यमेव निर्दिश्यते, न तु तद् धर्म। शासनादिमति गन्धवती शीतस्पर्शवती एते भवति लक्ष्यवाचकपदकं पदं, केवलं लक्ष्यं ते सूचयति न तु तस्मिन् विद्यमानधर्म।
कथं किमर्थं तथा? हा अस्तु, अग्रे पठतु। शासनादिमतिकाः
शासनादिमति तस्य अर्थं किम् अस्ति? गहु एव शासनादिमति गहु एव, यथा गतसप्ताहे वयं कृतवन्तः गन्धम् अस्ति घट अस्ति घटं मतु प्रत्य युज्वा घटवत् भवति, घटवत् भूतलम् इति सर्वे एक स्तरे आगति। सो शासनादिमति गहु स्तरे आगच्छति। सो शासनादिमति तस्य अर्थं भवति गहु एव शासनादिमति। तथैव गन्धवती गन्ध अस्ति पृथिव्याः लक्षणं, पृथ्वी निष्ठ गन्ध आधेय अस्ति गन्ध। सो गन्ध मतु प्लस्य उज्वामति गन्धवती तत्र आगति पृथ्वी, पृथ्वी स्तरे आगति गन्धवती। सो तत् भवति अधिकरणम् एव गन्धस्य अधिकरणं। तथैव शीतस्पर्शवत्यः कः? आपः एव आगच्छति, आपः तस्य गुण अस्ति शीतस्पर्शं। सो शीतस्पर्शं मतु प्रत्ययः भवति शीतस्पर्शवत्यः आपः इति स्तरे आगच्छति। सो
तत्र सर्वत्र का विभक्ति भगिनी? उभयोः
उभयोः प्रथमा विभक्ति आगच्छति।
हा, प्रथमा विभक्त्या किं निर्दिश्यते?
प्रथमाविभक्ति अत्र
लक्ष्यं निर्दिश्यते खलु गौः पृथिवी आपः लक्ष्यं न तु लक्षणं
लक्ष्यमेव निर्दिश्यते
लक्ष्यगतधर्मः न अतः एव उक्तं न तु तद्गतधर्मः तर्हि एवं विशेषणविशेषभावेन यद्यपि मतुप्योजनेन आश्रयः ज्ञातः तथापि आश्रयः कः सत्यं लक्ष्यमेव अत्र निर्दिश्यते प्रथमविभक्त्या अस्तु अग्रे पठतु भगिनि एवं च
लक्ष्यवाचकपद्यस्य या विभक्तिः तस्मान् विभक्तिकं यदि लक्षणवाचकपदकं पदं भवेत् तदा विद्यमानोऽपि आधार आधाय भाव न बुध्येत् लक्ष्यवाचकपदस्य या विभक्तिः अत्र प्रथमा विभक्तिः अस्ति तस्मात् तत्समानविभक्तिकं यदि लक्षणवाचकपदं भवेत् तदा विद्यमानो अपि आधार आधेयभाव न बुध्येत् यदि समान विद्यमानलक्षणवाचकपद पदम् अस्ति तत् आधाराधेयभाव न सूचयति
इति नाम एकदृष्ट्या मतुप् इति दृष्ट्वा अस्य अस्मिन् वा इति ऊहा तु भवति एव इति सत्यं परन्तु लक्ष्यवाचकपदस्यापि प्रथमा विभक्ति अपि च तत् समानविभक्तिकं किम्
समानविभक्तिकं लक्षणवाचकपदं यदि भवेत्
इति अपि अस्ति खलु शास्त्रादिमति इति लक्षणवाचकपदमपि प्रथमायां गौः इति प्रथमायां तथा किं भवति इति चेत् आधारादयभावः सुस्पष्टतया न ज्ञायेत इति यथा वयं पूर्वं दृष्टवन्तः गतवर्गे अपि करपत्रे भूतलम् इति अस्ति घटवत् इति समानस्तरे अस्ति खलु भूतलस्य उपरितनस्तरे नास्ति अनेन आधाराधेयभावः स्पष्टतया न बुध्येत इति ते वदन्ति अस्तु
अतः तत् ज्ञानाय लक्षणवाक्यं तथा स्यात् यथा स्पष्टः धर्मबोधः स्यात् लक्षणवाक्यं यदि धर्मस्य बोधं भवति तदापि लक्षणवाक्यं स्पष्टम् अस्ति अतः गन्धवती इत्यत्र यः मतु
यः कोऽपि अन्यः कोऽपि एतावता स्पष्टं वा समस्या का इति भगिनी यद् उक्तवती अधुना तत्तु का समस्या गन्धवती पृथ्वी इति वदामश्चेत् तादृश्यां शैल्यां समस्या का इति चेत् आधाराधेयभावः सुस्पष्टतया न बुध्येत यतोहि प्रथमा विभक्तिः निर्देशार्थे भवति खलु सामान्यतया अयं बालकः इति वदामः चेत् बालकस्य निर्देशः इयं गौः इति वदामश्चेत् गौः निर्देशः सास्नादिमति गौः इति चेत् पुनः गौः एव निर्देशः गन्धवती पृथिवी इत्युक्ते पृथिव्याः निर्देशः तर्हि लक्षणवाक्ये स्पष्टतया धर्मस्य निर्देशः नास्ति इति अङ्गीकुर्वन्ति वा सर्वे सास्नादिमति इति कुत्रचित् अस्ति लक्षणवाक्ये गन्धवती इति कुत्रचित् अस्ति सत्यं व्याकरणक्षेत्रे तु नामकरणम् इति वदामः सत्यमेव महोदय परन्तु सामान्यतया लौकिकव्यवहारे अपि प्रथमाविभक्त्या इदं किम् इति जानीमः तर्हि सास्नादिमति गौः इत्यत्र किं जानीमः रघुपतिमहोदय
लक्ष्यमपि जानीमः परन्तु क्लियर् न स्पष्टं न
इति एव समस्या अस्ति आधारादेयभावः सुस्पष्टः नास्ति अतः तद् ज्ञानाय तत्र सन्धिः अस्ति तत् प्लस् ज्ञानाय इति कस्य आधाराधयभावस्य ज्ञानाय लक्षणवाक्यं तथा स्यात् येन धर्मस्य बोधः भवेत् नाम लक्षणस्य बोधः भवेत् न तु केवलं लक्ष्यस्य अवगतं वा अस्तु तदर्थं किं कुर्मः इति अग्रे भानुचैतन्यमहोदय
आं महोदय
अतः गन्धवती इत्यत्र
आमां सत्यं तत्रैव
अतः गन्धवती इत्यत्र यः मतुप्रत्ययः ततः भावप्रत्ययः कार्यः तथा च गन्धवती योगत्व गन्धवत्व इति पदं भवति तत्र विद्यमानेन भावप्रत्ययेन भावः धर्मः बोध्यते स च भावः गन्धसमानकक्ष्यः भवति अतः गन्धवत्वम् इत्यस्य गन्धः एव अर्थः अत एव प्रसिद्धः नियमः मत्वर्तीयात् भावप्रत्ययः प्रकृत्यर्थं गमयतीति गन्धयोगमथुयोगत्व गन्धः निष्पद्यते शीतस्पर्शयोगमथुयोगत्व शीतस्पर्शः सास्नायोगमथुयोगत्व सास्ना
वदतु महोदय अधुना
अतः गन्धवती इति अत्र यः मतुप्रत्ययः गन्धवत् गन्धवती तत् मतुप्रत्ययः तत्र प्रयुज्यते अतः गन्धवती ततः भावप्रत्ययः कार्यः महोदय तत्र किञ्चित् साहाय्यं
अत्र किमपि नास्ति एतावता यद् पठितवन्तः गतवर्गे अपि गन्धवती इत्यत्र कः मतुप्रत्ययः
मतुप्रत्ययः
ततः इत्युक्ते किं तस्मात् पञ्चम्यर्थे तस्मात् भावप्रत्ययः कार्यः अथवा भावप्रत्ययः योजनीयः भावप्रत्ययौ कौ
त्वं
त्व अपि च तल् अस्ति खलु महोदय अधुनैव पठितं त्व तलाधि भाववाचकप्रत्ययं कृत्वा इति उक्तं सुन्दरत्वम् इति त्वं सुन्दरता इति तल् तादृशप्रत्ययद्वयं
महोदय
गन्धवती इत्यत्र मतुप्रत्ययः पुनः ततः अथवा तस्मात् भावप्रत्ययः कार्यः अग्रे पठतु स्पष्टं भवति
तथा च गन्धवती योगत्व गन्धवत्वम् इति पदं भवति
अत्र के के प्रत्ययाः सन्ति इति वदतु
अत्र मतुप्रत्ययः गन्धवति त्वं प्रत्ययः त्व द्वयोः
कीदृशप्रत्ययः त्व इति
भावप्रत्ययः भावप्रत्ययः
गन्धवति प्लस् त्व गन्धवत्व इत्येव उक्तं मतुप्रत्ययात् भावप्रत्ययः
अहो गन्धवत्वं तत्र विद्यमानेन भावप्रत्ययेन भावः धर्मः बोध्यते त्व इति योजयित्वा तत् गन्धवति गन्धवत्वम् इति तत् धर्मः स्पष्टं बोध्यते इति प्रायः उक्तं तत्र
हा इत्येव उक्तं त्व इत्यनेन धर्मः निष्पन्नः भवति खलु सुन्दरत्वम्
आम्
विद्यमानेन तत्र विद्यमानेन इत्युक्ते गन्धवत्व इत्यत्र विद्यमानेन भावप्रत्ययेन धर्मः बोध्यते अपि च सः धर्मः कः
गन्धवत्वम्
गन्धवत्वम् इत्येव धर्मः निष्पन्नः भवति अस्तु अग्रे
स च भावः गन्धसमानकक्ष्यः भवति गन्धसमानकक्ष्यः कक्ष्यः किं
कक्षः इत्युक्ते अत्र फुट् नोट् अस्ति सेम् फ्लोर् स्तरः इति चिन्तयतु वयं गतवर्गे करपत्रे दृष्टवन्तः गन्धवती पृथिवी इति चिन्तयतु तर्हि सर्व अधोभागे किमस्ति कोऽपि सायं करोति वा विद्या भगिनी विद्याभगिनी अस्ति हरि ओं सरला भगिनी
अस्तु भगिनि, अत्र गन्ध उपरि दत्तम् अस्ति, मत्तु प्रत्यवयोज्य पृथ्वी बुध्यते, गन्धवती पृथ्वी एव गन्धवती अस्ति.
हा अस्तु भगिनि, क्रमेण गच्छतु. अधुना गन्धसमानकक्ष्यः भवति इति उक्तं, सर्व अधोभागे किमस्ति?
ओ अधोभागे अहं चित्रं दृष्ट्वा उक्तवती तत्र.
हा हा, गन्धसमानकक्ष्यः. अधुना गन्धवती पृथ्वी, तर्हि अधः पृथ्वी अस्ति चेत् तस्मात् उपरि किमस्ति?
गन्धः अस्ति,
गन्धः अस्ति पृथ्वी, गन्धः
गन्धः.
हा गन्ध पुनः गन्धवती इति वदनेन, गन्धवती इति वदनेन पुनः कुत्र आगच्छामः?
यत्र पृथ्वी अस्ति तत्र आगच्छामः,
अधोभागे आगच्छामः खलु. गन्धवती का पृथ्वी इति पृथ्वीस्तरे लिखन्तु प्रायः, गन्धव पृथ्वी बुध्यते इत्यत्रैव गन्धवती समानस्तरे, उपरि गन्धः. पुनः गन्धवत्वम् इति कस्य स्तरे गच्छति?
उपरि यत्र गन्ध अस्ति तस्य स्तरे अस्ति, गन्धवती योज त्वं भवति गन्धवत्वम् उपरि गन्धस्तरे आगच्छति. सो पृथिव्या भाव अस्ति गन्ध, गन्धवती अस्ति पृथ्वी एव, तस्य भाव प्रकटी भवति गन्धवत्वं. लक्षणवाक्यं,
लक्षणवाक्यं सम्यक्. भानुचैतन्य महोदय, बुद्धं वा अधुना?
किञ्चित् बुद्धं महोदय.
तत्र किमपि नास्ति, गन्धसमानकक्षः, तत्र चित्रे एव पश्यतु, तत्र पृथ्वी इति अधोभागे अस्ति खलु, पृथ्वी बुध्यते, पृथ्वी तस्य उपरि गन्धः अस्ति,
अस्ति.
गन्धतः अधोगमनार्थं मतु प्रत्ययः गन्धवती. अस्तु, तत्रैव लिखतु, गन्धवती इति लिखतु, पृथ्व्याः स्थले एव गन्धवती. पुनः धर्मः कथं निष्पद्यते त्वं योजनेन? गन्धवत्वम् इति अधुना भवान् पठितवान्, मतु प्लस् त्वं, तत् कुत्र गच्छति? पुनः
उपरि,
उपरि गच्छति, भावः उपरि गच्छति. तर्हि गन्धवत्वं पुनः कस्य स्तरे आगच्छति? गन्धवत्वं
गन्धस्तरे.
हा गन्धस्तरे इति एव उक्तं, नाम मतु प्रत्ययात् त्वयोजनेन पुनः गन्धसमानकक्ष्यः भवति. कः? गन्धवत्वम् इति धर्मः. बुद्धं वा?
आम् महोदय.
अस्तु अग्रे गच्छतु.
अतः गन्धवत्वम् इत्यस्य गन्धः एव अर्थः. समानकक्षा भवति, अतः द्वयोः अर्थं समानमेव, गन्धवत्वं गन्धः. अथ एव प्रसिद्धः नियमः, एकः नियमः अस्ति, मत्वर्थीयात् भावप्रत्ययः प्रकृत्यर्थं गमयति इति, गमयति इति.
अत्र किम् अवगतं वा महोदय?
मत्वर्थीयात् तत्
मत् सास्नादिमत्, रघुपति महोदय वदतु किञ्चित्.
यदा लक्षणमस्ति तत् मत् प्रत्ययोजनेन, मत् प्रत्ययोजन तदनन्तरं भावप्रत्ययोजनेन पुनः वयं यदा गन्धवती, गन्धवती प्लस् त्वप्रत्यय पुनः प्रकृति गन्ध तत्र एव गच्छति इति.
समीचीनं. मत्वर्थीयात् इत्युक्ते मतुपर्थीयात् इति
चिन्तयति.
वदतु महोदय.
मत्वर्थीयात् मीन्स्
सास्नादिमति इत्यत्र मत् इति श्रूयते खलु, न तु वत्. गन्धवती इत्यत्र वत् इति, सास्नादिमति इत्यत्र मत् इति श्रूयते, यथा बुद्धिमति, बुद्धिमान्, बुद्धिमत् इति प्रातिपदिकं, तथा एव उक्तं. मत्वर्थीयात् इत्युक्ते मतुप् प्रत्ययात् पुनः भावप्रत्ययस्य योजनेन इत्युक्ते मतुप् प्लस् त्वं योजनेन प्रकृति इत्युक्ते अत्र गन्धः इति तस्य स्तरे एव गच्छामः इति नियमः. तर्हि लक्षणवाक्ये एवं नियमः भवति, गन्धः प्लस् मतुप् प्लस् त्व गन्धवत्व तत्तु गन्धः एव, शीतस्पर्शः प्लस् मतुप् प्लस् त्व शीतस्पर्शः इत्युक्ते शीतस्पर्शवत्वम् एव, सास्ना प्लस् मतुप् प्लस् त्व इति सास्नामत्वम् एव इत्युक्ते सास्ना इति. अवगच्छन्ति वा
भगिनी? प्रश्नः अस्ति, किमर्थं तत्र मतुप् प्रत्यये योजयित्वा तदनन्तरं त्व प्रत्यये योजयामः? अत्र गन्धत्वम् इति एव वक्तुं शक्नुमः खलु, किमर्थं गन्धवत्वम् इति?
अस्तु, भवती चिन्तयतु, गन्धत्वं कुत्र अस्ति?
गन्धत्वं गन्धे अस्ति.
गन्धत्वं पृथिव्याम् अस्ति वा?
गन्धत्वं पृथिव्यां नास्ति. तर्हि अत्र प्रथमं मतुप् प्रत्ययः इत्युक्ते आश्रयं सूचयति, तदनन्तरं त्वप्रत्यय योजनेन तत्र धर्मः सूचयति. तर्हि आश्रयमपि सूचयति, धर्मः अपि सूचयति इति वा?
वयं किम् उक्तवन्तः भगिनि, गन्धाश्रयत्वं पृथिव्याः लक्षणं खलु, आश्रयत्वम् इति उक्तं. तर्हि आश्रय इत्यनेन मतुप् तादृशत्वं पृथिव्याः लक्षणम् इति मतु प्लस् त्व इति आगच्छति. परन्तु गन्धत्वम् इति यद्भवती उक्तवती तद् पृथिव्यां नास्ति, तद् कुत्र वर्तते?
गन्धे एव वर्तते.
हा, गन्धे वर्तते. तर्हि गन्धत्वम् इति गन्धस्य धर्मः, न तु पृथिव्याः.
हा, तर्हि अत्र आश्रयत्वं प्रथमं प्रदर्शयित्वा तदनन्तरं धर्म त्वप्रत्ययं योजयामः चेत् तत्र तस्मिन् तादृशधर्मः अस्ति इति अवगन्तुं शक्नुमः वा?
इति एव वार्ता. सामान्यतया यथा गन्धवती पृथिवी इति न इष्टं, परन्तु गन्धवत्वं पृथिव्याः लक्षणम् इति वदनेन तद् वत्वम् इति यदस्ति तत्तु प्रथमविभक्त्याम् अस्ति खलु, सः धर्मः प्रथमविभक्त्याम् अस्ति, धर्मः निर्दिष्टः भवेत् इति आशयः. आश्रयत्वम् इति सूचयति भगिनि. अपि च भवती यद् पठितवती प्रथमपरिच्छेदे, तत्र स्थूलाक्षरे किमस्ति पठतु?
शीतस्पर्शः आपां लक्षणम्.
अत्र किं जातम्?
शीतस्पर्शः आपां लक्षणम् इति चेत् अत्र शीतस्पर्शः तत्र तु त्वप्रत्ययः मतुप्रत्ययः किमपि नास्ति, शीतस्पर्शः इति आधारः आदेयः अस्ति, आपाम् इति आधारः अस्ति, शीतस्पर्शः इति धर्मः नास्ति खलु अत्र?
हा, वस्तुतः इदानीं भानुचैतन्यमहोदयेन यत् पठितं, मत्वर्थीयात् भावप्रत्ययः प्रकृत्यर्थं गमयति.
तर्हि अत्र शीतस्पर्शवत्वम् इति एव अर्थः, शीतस्पर्शवत्वम् आपां लक्षणम् इति एव अर्थः. यद्यपि शीतस्पर्शः इति अस्ति, तथापि अत्र शीतस्पर्शवत्वम्. अस्तु, अवगच्छामि इदानीं स्पष्टमस्ति.
धन्यवादः. इत्येव वार्ता, मतु प्लस् त्वं प्रकृत्यर्थं गमयति, परन्तु लक्षणवाक्ये तु शीतस्पर्शवत्वम् अपां लक्षणम् इति वदामश्चेत् आधाराध्येयभावः इतोपि स्पष्टः भवति इति वार्ता. तदर्थमेव करपत्रम् इत्यादिकं वारं वारं पठितम् अस्माभिः वत्वं विषये, मतु प्लस् त्वं विषये. अस्तु,
समीचीनं महोदय. तत्र प्रकृत्यर्थं गमयति इति तद् किम्?
हा, प्रकृतिः इत्युक्ते गन्धः महोदय. मतु
बेक् टु ओरिजिनल् स्पेस् वेर् वि स्टार्टेड् सेम्.
हा, सत्यं सत्यं महोदय. प्रकृतिः इत्युक्ते गन्धः, ओरिजिनल् यदासीत् तद् तस्मिन् अर्थे एव आगच्छति, मतु प्लस् त्वम् अथवा मत्वर्थीयात् सस्नादिमति इत्यत्र मत् इति श्रूयते खलु, तर्हि मत्वर्थीयात् भावप्रत्ययः त्व अथवा तल् प्रत्ययः प्रकृत्यर्थं गमयति इति. अस्तु
अस्तु
अस्तु, तर्हि अत्र स्थगयामः, पुनः पठन्तु गृहे. अस्तु, अग्रिमवर्गात् इतः अग्रे.
धन्यवादः भगिनि.
धन्यवादः भगिनि, नमस्कारः.
धन्यवादः
धन्यवादः
धन्यवादः